सर्वेषां नमः। गतवर्गे वयं भूतकालरूपस्य क्रियापदस्य लङ्लकारस्य परिचयं दृष्टवन्तः, अपि किञ्चित् अभ्यासमपि कृतवन्तः। तत्र भूतकाले लङ्लकारे परस्मैपदीधातूनां रूपाणि तद् प्रथमतया पश्यामः अद्य। तदनन्तरं यदि समयः अस्ति चेत् आत्मनेपदीधातूनां तेषामपि रूपाणि दृष्ट्वा तस्य अपि किञ्चित् अभ्यासं कुर्मः। प्रथमतया तत्र परस्मैपदीधातूनां बालकः पठतीति यत् वर्तमानकाले वयं वदामः, बालकः इदानीं पठति, किन्तु ह्यः बालकः अपठत् इति वदामः। इदानीम् अद्य पठति, किन्तु ह्यः सः अपठत् इति तादृशरूपम् अस्ति। तत्र पठति अस्ति चेत् अपठत्, चलति अस्ति चेत् अचलत् इति अस्ति रूपम् अस्ति। तत्र प्रथमं केवलं तत्र वयं जानीमः गतवर्गे तत्र तद् एकवारमपि कोऽपि अस्तु, तत्र पठति इति धातोः नवरूपाणि, पुरुषत्रयम् अपि वचनत्रयं, कः अथवा का वदति? शोभा भगिनी।
आम् महोदय,
अस्तु,
पठति, पठतः, पठन्ति, पठति।
अस्तु अस्तु अस्तु, तद् वदतु भगिनी। वर्तमानकरूपम् एकवारं वदतु। पठति, पठतः, पठन्ति,
पठति, पठतः, पठन्ति, पठसि, पठतः, पठथा, पठामि, पठावः, पठामः
इति। इदानीं भूतकाले,
भूतकाले अपठत्, अपठताम्, अपठन्, अपठः, अपठतम्, अपठत, अपठम्, अपठाव, अपठाम
इति रूपाणि सन्ति। समीचीनं भगिनि, धन्यवादः। इदानीं प्रथमतया एतादृश अभ्यासं कुर्मः। केवलं प्रथमपुरुषे एकवचने अहं क्रियापदं वदामि, पृच्छामि, केवलं तस्य क्रियापदस्य लङ्लकाररूपं प्रथमपुरुष एकवचने, पठति चेत् अपठत् इति। तादृशं किञ्चित् अभ्यासं कुर्मः, तदनन्तरं अन्यानि रूपाणि अपि तस्य अभ्यासं कुर्मः। अस्तु, तत्र नरेश महोदय, खादति,
अखादत्,
अखादत्। गीताञ्जलि भगिनी वदति, अवदत्। भानुचेतनी महोदय, चलति,
अचलत्,
अचलत्। समीचीनं। शुभा भगिनी, हसति,
अहसत्,
अहसत्। अस्तु, शोभा भगिनी, इदानीं नयति,
नयति, अनयत् अस्ति वा?
अनयत्, तावदेव, अनयत्, अनयत्। समीचीनं। अस्तु, इदानीं तत्र अग्रे इदानीं एतत् कुर्मः, तत्र केवलं प्रथमपुरुषे त्रिषु वचनेषु रूपाणि वक्तव्यम् इदानीम्। अस्तु, इदानीं नरेश महोदय, तत्र क्रीडति,
अक्रीडत्, अक्रीडताम्, अक्रीडन्,
अक्रीडन्। समीचीनं। अग्रे नरेश महोदय, तत्र पश्यति, नरेश महोदय उक्तवान्, क्षम्यतां, गीताञ्जलि भगिनी, पश्यति, अपश्यति, अपश्यत्, अपश्यताम्, अपश्यन्। समीचीनं। बाणचितनी महोदय, अग्रे हरति,
अहरत्, अहरताम्, अहरन्।
समीचीनम्। अस्तु, शोभा भगिनी, इदानीं मिलति,
अमिलत्, अमिलताम्, अमिलतन्,
अमिल। तत्र चलति चेत् अचलत्, अचलताम्, अचलताम्,
मिल, अमिलताम्। रूपं भिन्न भिन्न भवति वा महोदय?
न न न भगिनि, तदेव तत्र पश्यतु,
मिलति, अमिलत्,
अमिलताम्,
अमिलताम्, अमिलतन्,
तत्र चलति चेत् तत्र अचलतन् वदति वा अथवा अचलन् वदति वा?
अमिलन् अमिलन्,
हा तत्र तकारः नास्ति बहुवचने, तावदेव समीचीनं भगिनि इदानीं, हा अतः अमिलन्
अमिलन्
अमिलन् तावदेव भगिनि, अस्तु समीचीनं, हा अस्तु। शुभा भगिनी पिबति, अपि बन् समीचीनम्, अस्तु। नूतनतया के के आगतवन्तः?
नमस्ते महोदय, उषा अस्मि।
हा उषा भगिनी नमस्कारः।
नमस्कारः महोदय, श्रीप्रिया।
श्रीप्रिया भगिनी नमस्कारः, स्वागतम्।
तत्र
हा वयं गीतासोपाने पेज् 82 मध्ये स्मः, तत्र लङ्लकाररूपं परस्मैपदीधातूनां, हा तत्र केवलं प्रथमपुरुषरूपाणि तेषाम् अभ्यासं कुर्मः प्रथमतया। अस्तु अस्तु, उषा भगिनी अतः तत्र स्मरति इति लङ्लकाररूपं केवलं प्रथमपुरुषे
अस्मरन्,
हा समीचीनम्, अस्तु। श्रीप्रिया भगिनी वदति वा? श्रीप्रिया भगिनी
एकनिमिषं महोदय, कुत्र
सङ्ख्यां? किन्तु क्रियापदम् अहं ददामि, तत्र तत्र 82 पश्यतु, तत्र कोष्टकम् अस्ति अस्ति मध्ये चलति इति अचलत् अचलताम् अचलन् इति, इदानीं तत्र त्यजति
अत्यजताम् अत्यजन्
केवलं केवलं प्रथमपुरुषे इदानीं, हा समीचीनं भगिनि, समीचीनं समीचीनम्, अस्तु। हा अग्रे इदानीं हा नरेश महोदय, इदानीम् आरम्भं कुर्मः, तत्र त्रिषु या इदानीं किं हा मध्यमपुरुषः नरेश महोदय, मध्यमपुरुषः मध्यमपुरुषः तत्र कोष्टके किमस्ति चल् धातोः मध्यमपुरुषरूपाणि एकवारं वदतु महोदय, तत्र
अचलः अचलतम् अचलत,
हा इति। इदानीं नूतनक्रियापदं तत्र तिष्ठति
तिष्ठति अतिष्ठत,
हा इति अस्ति समीचीनं। हा गीताञ्जलि भगिनी रचयति मध्यमपुरुषं भगिनी, तत्र सम्यक्तया न श्रूयते।
अस्तु महोदय, अहं इदानीं
अस्तु अस्तु पुनः अहं पृच्छामि, अस्तु भानुचैतन्य महोदय, इदानीं तत्र पतति इति मध्यमपुरुषे एकवचने किम् अस्ति चलति चलति भवति अचलः इति
महोदय अपटः महोदय
अस्तु पतति इति पतति
अपटः
अपटः
अपठं
महोदय अपत पतति इति पठति न पतति अतः
अपततम्
अपततम्
अपतत
अपतत समीचीनं महोदय अपतः अपततम् अपतत इति समीचीनं महोदय अस्तु अग्रे शोभा भगिनी वसति
वसति अवसः अवसतम् अवसत
हा समीचीनम् अस्तु शुभा भगिनी इदानीं पचति
अपचः अपचतम् अपचत
अपचत समीचीनम् अस्तु उषा भगिनी इदानीं वसति
वसति अवसः अवसतम् अवसत इति
अस्ति। अस्तु, श्रीप्रिया भगिनी गायति।
अगायः अगायतम् अगायत
अगायत, समीचीनं। हा गीताञ्जलि भगिनी इदानीं अस्तु। हा तत्र ताडयति न न मध्यमपुरुषे एकवचने चलति अचलः इति भवति, तत्र ति इति नास्ति, तकारः नास्ति। ताडयः हा इदानीं किञ्चित् समीचीनमस्ति भगिनि, किन्तु सम्यक् इति हा सम्यक्तया न श्रूयते भगिनि, श्रूयते किन्तु सम्यक्तया न श्रूयते। हा अस्तु, हा इदानीं नरेश् महोदय अग्रे, तत्र इदानीं उत्तमपुरुषे नरेश् महोदय पाठयति।
पाठयति, अपाठयम् अपाठयाव उपाठयाम।
हा अस्तु, अग्रे भानुचित्रि महोदय दर्शयति उत्तमपुरुषे। भानुचित्रि महोदय
आं महोदय म्यूट् मध्ये अस्मि।
अस्तु, दर्शयति दर्शयति दर्शयति
अदर्शयम् अदर्शयाव अदर्शयाम।
हा समीचीनं महोदय। हा अस्तु, शोभा भगिनी चिन्तयति।
अचिन्तयम् अचिन्तयाव अचिन्तयाम।
हा समीचीनं, शुभा भगिनी सूचयति।
असूचयम् असूचयाव असूचयाम।
हा समीचीनं, हा उषा भगिनी चोरयति।
चोरयति अचोरयम् अचोरयाव अचोरायाम।
न न चोरयति किम् अस्ति, अचोरयम्
अचोरयाव
अचोरयाम। हा समीचीनं, तत्र चोरयति इति पदं तत्र ति इति भागं त्यजतु, तदनन्तरं किं किमपि यद् अन्ते अन्तिमभागम् अस्ति अचलत् इति तादृशं तत्र स्थापयतु खलु, अतः अचोरयम् अचोरयाव अचोरयाम इति। समीचीनं, हा समीचीनं भगिनि। अस्तु अग्रे श्रीप्रिया भगिनी योजयति।
अयोजयम् अयोजयाव अयोजयाम।
हा समीचीनं भगिनि। अस्तु तत्र गीताञ्जलि भगिनि इदानीं स्थापयति।
स्थापयति इदानीं श्रूयते महोदय।
श्रूयते भगिनि, श्रूयते श्रूयते।
स्थापयति स्थापयम् स्थापयाव स्थापयाम।
अस्थापयाव अस्थापयाम, समीचीनं भगिनि। अस्तु हा इदानीं तत्र तदेव क्रियापदं। हा वंशीसुत भगिनी नमस्कारः।
महोदय महोदय स्था इति धातोः तिष्ठति इति क्रियापदं भवति न महोदय? अतिष्ठम् अतिष्ठाव
स्थापयति इति तिष्ठति इति नास्ति खलु, स्थापयति अन्यदस्ति तिष्ठति अन्यदस्ति।
किमर्थम् इत्युक्ते 84 पेज् मध्ये यत् गृहकार्यम् आसीत् तत्र स्था इति धातोः तिष्ठति इति अहं चिन्तयामि अतिष्ठा।
हा तत् तत्तु सत्यं भगिनि, किन्तु स्था अपि स्थापय भिन्नाः
अस्ति वा अहं न जानामि
भगिनि। तत्र अहं तत्र तिष्ठवान् किन्तु सः मन्दिरं स्थापितवान्।
ओ अस्तु, द्वयोः द्वयोः
चलति चालयति चलति चालयति पठति पाठयति इति।
आम् आम् महोदय, द्वयोः धातु स्था एव भवति वा महोदय?
सत्यं, किन्तु क्रियापदं भिन्नं खलु,
भिन्नमस्ति महोदय।
समीचीनं वा इदानीं?
आं महोदय,
अस्तु, प्रश्नः समीचीनः एव, किन्तु अस्तु, तत्र भवती अपि वदतु तत्र किं नृत्यति इति.
आम् महोदय, नृत्यति, अनृत्यम्, अनृत्याव, अनृत्याम.
हा समीचीनं भगिनि, अस्तु समीचीनम्. अस्तु इदानीं तत्र वयं तत्र यद् यानि क्रियापदानि वयं दृष्टवन्तः इदानीं तेषाम् इदानीं एकवारं सर्वेषु पुरुषेषु वचनेषु एकवारं कुर्मः अभ्यासरूपेण, तदनन्तरं गृहपाठं कुर्मः, अग्रे गच्छामः. अस्तु तत्र इदानीं किञ्चित् परिवर्तनं कुर्मः. अस्तु शुभा भगिनी, तत्र खादति इति वर्तमाने तस्य लङ्लकार नवरूपाणि.
अखादत्, अखादताम्, अखादन्, अखादः, अखादतम्, अखादत, अखादम्, अखादाव, अखादाम.
हा समीचीनं भगिनि. अस्तु शुभा भगिनी, शोभा भगिनी, तत्र क्षम्यतां, हसति इति.
न न महोदय, हसति, अहसत्, अहसताम्, अहसन्, अहसः, अहसतम्, अहसता, अहसम्, अहसाव, अहसाम.
हा समीचीनं भगिनि. अस्तु इदानीं भानचितनी महोदय, क्रीडति.
अक्रीडत,
न न अक्रीडत न, अक्रीडत, अक्रीडत,
अक्रीडत, अक्रीडताम्, अक्रीडन्, अक्रीडः, अक्रीडम्,
अक्रीडतम्.
महोदय,
अक्रीडं भवती किं रूपम्? अक्रीडमपि समीचीनं, किन्तु मध्यमपुरुषद्विवचनं रूपं नास्ति. अक्रीडं किं भवति?
इदानीं तु न जानामि महोदय.
तत्र पुटसङ्ख्या 82 पश्यतु महोदय, तत्र किम् अस्ति इति. उत्तमपुरुष एकवचनरूपं भवति. किन्तु इदानीं भवान् मध्यमपुरुषरूपाणि वदन् आसीत्.
वदामि इदानीं. आं महोदय, अहं मस्तके आसीत्.
अस्तु अस्तु महोदय, अस्तु 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 अस्तु,
अभ्यासं करोमि.
अस्तु महोदय, चिन्ता मास्तु.
अक्रीडः, अक्रीडतम्,
अक्रीडत,
अक्रीडत, महोदय अहम्
अक्रीडम्,
अक्री अक्रीड अक्रीडत, अक्रीडत, महोदय मध्यमपुरुष, उत्तमपुरुष महोदय, अक्रीडम्, अक्रीडाव, अक्रीडाम.
अस्तु अस्तु, पुनरेकवारं वदति वा पूर्णतया
महोदय. अक्रीडत्, अक्रीडताम्, अक्रीडन्, प्रथमपुरुषरूपाणि महोदय. अक्रीडः, अक्रीडतम्, अक्रीडत, मध्यमपुरुषरूपाणि. अक्रीडम्, अक्रीडाव, अक्रीडाम, पुरुषरूपाणि.
अस्तु समीचीनं समीचीनं महोदय. अस्तु
धन्यवादः.
अग्रे गीताञ्जलि भगिनी. पश्यति इति.
अपश्यताम्, अपश्यन्, अपश्यः, अपश्यतम्, अपश्यत, अपश्यम्, अपश्याव, अपश्याम.
हा इति समीचीनम्. अस्तु नरेश महोदय, इदानीं मिलति,
मिलति, अमिलत्, अमिलताम्, अमिलन् अमिलः अमिलतम् अमिलत अमिलम् अमिलाव अमिलाम
हा समीचीनं महोदय अस्तु अग्रे श्रीप्रिया भगिनी तत्र त्यजति
अत्यजताम् अत्यजन् अत्यजः अत्यजतम् अत्यजत अत्यजम् अत्यजाव अत्यजाम
हा समीचीनं भगिनि हा अग्रे वंशीसुधा भगिनी तिष्ठति
आं महोदय किं वदामि महोदय
तिष्ठति
तिष्ठति अतिष्ठत् अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठः अतिष्ठतम् अतिष्ठत अतिष्ठम् अतिष्ठाव अतिष्ठाम
हा समीचीनं भगिनि अस्तु उषा भगिनी अग्रे रचयति
रचयति रचयति आचरयत्
रचयति रचयति काव्यं रचयति इति तादृशं रचयति
अरचयत् अरचयताम् अरचयन् अरचयः अरचयतम् अरचयत अरचयम् अरचयाव अरचयाम इति
हा इति समीचीनं भगिनि अस्तु 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 बहु समीचीनम् अस्ति हा अस्तु इदानीं तत्र अहं चिन्तयामि तत्र परस्मैपदी धातूनां अभ्यासः तु अभवत् इति हा इदानीं किं तत्र हा इदानीम् एतत् कुर्मः तत्र अहं पुनः पृच्छामि एकमेकं पृच्छामि तत्र रूपं वक्तव्यमस्ति अहं क्रियापदं वचनं पुरुषं ददामि अस्तु हा तत्र एतद् वयम् एतदपि अभ्यासं कुर्मः हा तत्र किम् एतावत् किं किं क्रियापदं हा एतद् नो चेत् इण्टराक्षन् नास्ति इति कृत्वा तत्र अहं क्रियापदं ददामि किन्तु भवन्तः कः वदति इति चिनोतु अपि किं वचनम् अपि पुरुषम् इति चिनोतु अस्तु तत्र शोभा भगिनी हा तत्र अहं क्रियापदं ददामि किन्तु भवती अन्यान् पृच्छतु हा वचनम् अपि पुरुषं ददातु भवती तत्र किं गायति इति
गायति
कम् अथवा कां पृच्छामः इति भवती निर्णयं करोतु
वाक्यं रचयामि वा
न केवलं वाक्यं न तस्य लङ्लकार मध्यमपुरुष द्विवचनरूपं किम् इति तादृशप्रश्नं पृच्छतु
प्रश्नं पृच्छतु तदेव
प्रश्नं किन्तु कम् अथवा काम् इति चिन्तयि निर्णयं करोतु तत्र शुभा भगिनी अस्ति वनचितिनी महोदया अस्ति गीताञ्जलि भगिनी अस्ति नरेश महोदया अस्ति श्रीप्रिया भगिनी अस्ति वंशीसुधा भगिनी अस्ति उषा भगिनी अस्ति
अस्तु आम् महोदय गायति अस्ति काः ह्यः अगायन्
न भगिनी अस्तु अस्तु पुनः वदामि भवती निर्णयं करोतु कः इदानीं उत्तरं ददाति इति प्रथमतया निर्णयं करोतु कां पृच्छति भगिनी कम् अथवा कां पृच्छति भगिनी
महोदय क्षमतां न अवगच्छामि भवान्
अहं करोमि सन्ति अस्तु अहम् एतत् करोमि अस्तु शोभा भगिनी भवती नरेश महोदयं पृच्छतु तत्र प्रश्नः अस्ति तत्र गायति इति क्रियापदस्य लङ्लकाररूपं किन्तु किं वचनमपि कः पुरुषः इति भवती चिनोतु
ओ अस्तु महोदय गायति इत्यस्य मध्यमपुरुषे द्विवचने करोतु महोदय
नरेश महोदय
नरेश महोदय
अगम्यतम्
अगम् अगायतम् इति समीचीनम्. अस्तु नरेश् महोदय, भवान् एव इदानीं चिनोतु कम् अथवा कां पृच्छति इति. अहं यदि भवानेव क्रियापदम् अस्ति चेत् भवान् एव पृच्छतु, नो चेत् अहं क्रियापदं ददामि.
महानुचेत महोदय, उत्तमपुरुष द्विवचनं
क्रियापदं
गायति.
अस्तु गायति एव. अस्तु
अगायाव.
अस्तु भानुचेतन महोदय, भवान् एव अन्यान् पृच्छतु इदानीं.
आं महोदय, श्रीप्रिय महोदय, मध्यमपुरुष द्विवचनं
पश्यति. पश्यति वा? अपश्यतं. समीचीनं भगिनि. अस्तु श्रीप्रिया भगिनी, इदानीं भवती पृच्छतु. तत्र अहं वदामि, उषा भगिनी अस्ति, वंशीसुधा भगिनी अस्ति, नरेश् मोदी अस्ति, गीताञ्जलि भगिनी, शुभा भगिनी, शोभा भगिनी.
लिख् दातु उत्तमपुरुष द्विवचनं.
किन्तु कः?
लिख् दातु उत्तमपुरुषे द्विवचनरूपं महोदय.
द्विवचनमेव.
समीचीनम्. अस्तु भवत्याः.
अहम् उषा भगिनीं पृच्छामि. शृणोति शृणोति उत्तमपुरुषे बहुवचनरूपम्.
उत्तमपुरुषे बहुवचनं शृणोति नाम भगिनी.
आं भगिनि, आं भगिनि. चर् इति धातु चरति.
चरति. अस्तु
चरति.
चरति अचराम.
आम् आम्
अचराम. अस्तु उषा उषा भगिनी, इदानीं भवती पृच्छतु.
प्रश्नमस्ति शोभा भगिनी, क्रियापदम् अस्ति नयति, मध्यमपुरुष द्विवचने.
मध्यमपुरुष द्विवचने नयति. अनयतम्.
अनयतम्. अस्तु समीचीनम्. अस्तु पुनः शोभा भगिनी, भवती पृच्छतु. तत्र अहं क्रियापदम् आवश्यकं चेत् पृच्छतु, अहं ददामि.
किं किं के के शुभा भगिनी
एतावत् गीताञ्जलि भगिनी न उक्तवती इति मन्ये. गीताञ्जलि भगिनी न उक्तवती, अतः तां पृच्छतु.
गीताञ्जलि भगिनी
अतः शोभा भगिनी इदानीं भवतीं पृच्छति भगिनी. गीताञ्जलि भगिनी
खादति उत्तमपुरुषे द्विवचने.
खादाव. समीचीनम्. अस्तु इदानीं गीताञ्जलि भगिनी भवती पृच्छतु. के के सन्ति इति वा? तत्र उषा भगिनी, वंशीसुधा भगिनी, श्रीप्रिया भगिनी, नरेश् महोदय, बालचेतन महोदय, शोभा भगिनी, शुभा भगिनी.
नरेश् महोदय कथयति प्रथमपुरुष बहुवचन. कथयति महोदय.
क्रियापदं किम् अस्ति भगिनि, पुनरेकवारं?
कथयति.
न
बहुवचने वा? उत्तरं किम्?
अकथयन्.
अकथयन्. समीचीनं महोदय. अकथयन्. अकथयन् इति अस्ति. समीचीनम्. अस्तु अस्तु. इदानीं तत्र परस्मैपदी धातूनां अभ्यासं कृतम् इति मन्ये. तत्र आत्मनेपदी धातूनाम् एकवारं प्रथमतया सामान्यरूपाणि तस्य अभ्यासं भवतु. ते तत्र सर्वाणि रूपाणि मनसि तस्य स्थापनं भवतु, तदनन्तरं तेषां स्थापनं मनसि भवतु, तदनन्तरं विशेषरूपाणि पश्यामः. प्रथमतया साधारणरूपं किम् अस्ति इति, सामान्यरूपं किम् अस्ति इति तदेव अपेक्षितमस्ति. इदानीं तत्र आत्मनेपदी धातूनां तत्र अग्रिमपुटे यत् अस्ति उपरि पुटसङ्ख्या 83 उपरि, तत् एकवारं पश्यामः. तत्र भाष् इति, भाषते इति, तत्र हा वंशीसुध भगिनी, भाषते इति तत्र भर्तम लट्लकाररूपं किम् इति एकवारं वदति वा, भाषते इति?
आम् महोदय, लट्लकाररूपमस्ति भाषते, भाषेते, भाषन्ते, भाषसे, भाषेथे, भाषत्वे, भाषे, भाषावहे, भाषामहे.
हा इति समीचीनं भगिनि. हा तत्र यदि न स्मरन्ति पुटसङ्ख्या 48 पश्यतु, तत्र अस्ति. तत्र आत्मनेपदी धातूनां लट्लकाररूपं इदानीं तदेव दृष्ट्वा तत्र प्रथमतया एकवारम् एतद् कुर्मः. तत्र प्रथमपुरुषे, तदनन्तरं मध्यमपुरुषे अभ्यासः, तदनन्तरम् उत्तमपुरुषे कुर्मः. अस्तु, तत्र उषा भगिनी, तत्र वर्धते इति क्रियापदं तस्य लङ्लकार प्रथमपुरुषे
वर्धते, लङ्लकारे,
लङ्लकारे यत्र पेज् 83 दृष्ट्वा. हा एतत् करोतु भगिनि, प्रथमतया तत्र उषा भगिनि, प्रथमतया पुटसङ्ख्या 83 दृष्ट्वा तत्र भाषते इति यदस्ति तत्र लङ्लकाररूपं दत्तमस्ति. प्रथमतया प्रथमपुरुषरूपाणि एकवारं पठतु भगिनि. न न भाषते, भाषते इति तस्य रूपम् एकवारं पठतु, तदनन्तरं वर्धते, वर्धते इति तस्य करोतु.
आभाषत, आभाषेताम्, आभाषन्त.
हा इति प्रथमपुरुषे, हा भाषते इति क्रियापदस्य. हा इदानीं
वर्धते.
हा
आवर्धत, अवर्धेताम्, अवर्धन्त
इति समीचीनं भगिनि. हा इति अस्ति समीचीनम्. अस्तु अग्रे श्रीप्रिया भगिनी, तत्र जायते इति.
अजायत, अजायेताम्, अजायन्त.
हा समीचीनं. हा नरेश महोदय, म्रियते इति
किं?
म्रियते,
म्रियते, अम्रियेताम्, अम्रियन्त.
हा समीचीनं. हा गीताञ्जलि भगिनी, भजते,
भजते, अभजत, अभजेताम्, अभजन्त,
अभजन्त. समीचीनं. हा अस्तु भानुचितनी महोदय, तत्र कामयते,
अकामयत, अकामयेताम्, अकामयन्त.
हा समीचीनं. हा शोभा भगिनी, तत्र लभते,
लभते, अलभत, अलभे, अलभे, अलभेताम्, अलभेताम्, अलभा, अलभन्त,
अलभन्त. समीचीनं. हा इदानीं शुभा भगिनी, तत्र वर्तते,
अवर्धत, अवर्धेताम्, अवर्धन्त.
हा समीचीनं भगिनि. अस्तु वंशीसुर भगिनी, तत्र क्षमते,
अक्षमते, अक्षमत, अक्षमेताम्, अक्षमन्त,
अक्षमन्त. समीचीनं. हा इदानीं मध्यमपुरुष कुर्मः. अस्तु तत्र गीताञ्जलि भगिनी, मध्यमपुरुष तत्र वर्धते इति,
वर्धते, अवर्धथाः, अवर्धेथाः, अवर्धध्वम्,
अवर्धध्वम्. समीचीनं. हा नरेश महोदय, कल्पते,
अकल्पते अकल्पथाः अकल्पेथाम् अकल्पध्वम्
हा इति समीचीनं हा श्रीप्रिया भगिनी तत्र वीक्षते वीक्षते मध्यमपुरुष लङ्लकार
अवीक्षताः अवीक्षेथाम् अवीक्षध्वम्
हा समीचीनं हा वंशीसुत भगिनी सहते इति
असहताः असहेथाम् असहध्वम्
हा समीचीनं हा उषा भगिनी तत्र सेवते
सेवते आसेवताः आसेवेताम् आसेवेध्वम्
समीचीनं हा भानुचित्तनि महोदय इदानीम् अवलोकते
अवलोकथाः अवलोकेथाम् अवलोकध्वम्
हा समीचीनं महोदय तत्र किञ्चित् क्लेशः आसीत् अकारः तत्र आरम्भे अस्ति इति कृत्वा अकारः योग अकारः आकारः इति समीचीनं महोदय अस्तु हा अग्रे शोभा भगिनी तत्र क्षमते
क्षमते अक्षमता अक्षमेताम्
न इदानीं मध्यमपुरुषः
अक्षमथाः अक्षमेथाम् अक्षमध्वम्
हा समीचीनं शोभा भगिनी इदानीं तत्र जायते
अजायथाम्
अजायेथाम् अजायध्वम् हा समीचीनम् अस्तु हा इदानीं तत्र उत्तमपुरुषस्य रूपमपि एकवारं तस्य अभ्यासं कुर्मः तत्र हा बालचित्रिणी महोदय तत्र भाषते मध्यमपुरुषरूपम्
मध्यमपुरुषमहोदय
क्षम्यताम् उत्तमपुरुषरूपं किन्तु एकनिमेषः भाषते एव तत्र दत्तमस्ति अतः भाषते मास्तु हा तत्र वीक्षते हा वीक्षते इति उत्तमपुरुष रूपाणि
अकारः योग वि
न हा अकारयोगः वि करेक्ट् सत्यं न किमर्थं तत्र वि अनन्तरम् अकारः नास्ति खलु अ अनन्तरं वि अस्ति
आं महोदय
अस्तु अस्तु तत्र भाष् भाष् इति धातोः एकवारं रूपं पठतु महोदय तत्र उत्तमपुरुषे किम् अस्ति इति पुटसङ्ख्या 83 मध्ये
अभाषते
न हा
भाषावहि अभाषामहि
हा इदानीं हा वीक्षते इति वदतु
अवीक्षामहि
हा समीचीनं महोदय समीचीनं तत्र भाषते इति स्थाने तत्र अभाषे इति तत्र तेकारः गच्छति केवलम् अभाषे इति भवति समीचीनं महोदय अस्तु शोभा भगिनी इदानीं
महोदय एकः प्रश्नः महोदय आत्मनेपदी रूपाणि प्रथमपुरुषे एकवचने अभाषत् अस्ति सदेव रूपम् अस्ति परस्मैपदी धातोः मध्यमपुरुषे बहुवचनरूपं
कथं सत्यं वक्तुम् इष्टवान् किन्तु विस्मृतवान् समीचीनमस्ति भगिनि हा सर्वे तत् पश्यतु तत् समीचीनमेव अस्ति तत्र अचलत इति अथवा तत्र अभाषत इति तादृशरूपं परस्मैधातूनां मध्ये अपि भवति किन्तु तत्र मध्यमपुरुष बहुवचनरूपम् अस्ति अत्र प्रथमपुरुष एकवचनरूपम् अस्ति समीचीनं भगिनि सत्यं तत्र क्लेशः भवति चेत् तत्र कर्तृपदस्य वचनं दृष्ट्वा
ओ अस्तु अस्तु
वचनं दृष्ट्वा वयं एतत् पर अथवा यदि जानीमः तत् एतत् परस्मैपदि धातु अस्ति इति यदि ज्ञानं नास्ति चेत् अपि वयं तत्र वचनं दृष्ट्वा कर्तृपदस्य वचनं दृष्ट्वा अस्तु एतद् बहुवचने अस्ति इति कृत्वा एतत् परस्मैपदि धातु नाम हा इति निर्णयं कर्तुं शक्नुमः। हा समीचीनं भगिनी अस्तु भगिनी तत्र यदि तत्र उभयपदी धातु अस्ति इति चिन्तयतु अन्यत् किमपि अस्ति किन्तु तत्र अभाषत इति अस्ति यदि वयं न जानीमः अभाषते इति आत्मनिपदी धातु अस्ति इति न जानीमः अभाषत इति पदं वाक्ये पश्यामः अतः किं चिन्तनं भवति न यदि न जानीमः केवलं तत्र अस्ति अभाषत इति अस्ति भवती किं चिन्तयति एतत् पुरुषः वचनं किम् इति प्रश्नः अस्ति चेत् किं करोति भवती हा लङ्लकारे यदि परस्मैपदी धातु अस्ति अथवा आत्मनेपदी धातु अस्ति इति यदि ज्ञानं नास्ति तत्र अन्तिमभाग तकारः अस्ति इति दृष्ट्वा किं वक्तुं शक्नुमः अस्तु आत्मनेपदी धातु अस्ति चेत् प्रथमपुरुषे एकवचनं परस्मैपदी धातु अस्ति चेत् किं भवति हा इति समीचीनम् अतः वाक्ये एतादृशरूपं भवति चेत् वयं कर्तृपदस्य वचनं दृष्ट्वा निर्णयं कर्तुं शक्नुमः। समीचीनं खलु अस्तु अस्तु वंशीसुधा भगिनी इदानीं तत्र उत्तमपुरुषे किं कामयते इति समीचीनं अस्तु उषा भगिनी कल्पते
कल्पते कल्पते अकल्पे अकल्पावहि अकल्पामहि
हा समीचीनम् अस्तु इदानीं शुभा भगिनी सेवते हा समीचीनं हा शोभा भगिनी तत्र वीक्षते
अवीक्षे अवीक्षावहि वीक्षामहि
अवीक्षामहि समीचीनं हा बाणचेतनी महोदय तत्र जायते
महोदय अजाये अजायावहि अजायामहि
हा समीचीनं हा अस्तु गीताञ्जलि भगिनी तत्र सहते सहते इति
उत्तमपुरुषे
हा समीचीनं नरेश महोदय तत्र अवलोकते किन्तु तत्र किम् अस्ति अवलोकते तत्र अकारः पूर्वमेव अस्ति भाषते चेत् अभाषत अतः नूतन अकारः तत्र आगच्छति खलु महोदय न तत्र अवलोकते इति किं कुर्मः तत्र दीर्घाकारः आगच्छति हा समीचीनं महोदय एतदेव बालचित्रि महोदय अपि कृतवान् पूर्वं समीचीनम् अस्तु हा इदानीं प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एकवारं वयं तस्य अभ्यासं कृतवन्तः इदानीं पूर्णतया नवरूपाणि एकवारं तत्र कुर्मः तदनन्तरम् अत्र एव अन्यत् अपि किञ्चित् कुर्मः अस्तु इदानीं तत्र
एकः प्रश्नः अस्ति
लोकते अवयोगः अलोक
सत्यं भगिनि सत्यं सत्यं हा 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 सत्यमेव सत्यं 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 धन्यवादः अहं न किं चिन्तनं न कृत्वा अहम् उक्तवान् समीचीनं धन्यवादः भगिनि उपसर्ग अस्ति इति कृत्वा तत्र हा रूपं भिन्नम् अस्ति समीचीनं धन्यवादः हा धन्यवादः अहं विस्मृतवान् किन्तु समीचीनम् अस्ति हा अतः नरेश महोदय अन्यत् किमपि क्रियापदम् अहं ददामि शुभा भगिनी यत् उक्तवती तत् समीचीनमेव अस्ति तत्र उपसर्गः विषयः अस्ति खलु तत्र अग्रे उपसर्गः आयाति अग्रिम अध्याये इदानीं तत्र उपसर्गः इदानीं मास्तु अतः अहं अन्यत् किमपि क्रियापदं ददामि किन्तु शुभा भगिनी धन्यवादः हा नरेश महोदय अतः भवान् एतत् करोतु तत्र कल्पते इति हा इति अस्ति समीचीनं हा उपसर्गस्य विषयः इदानीं मास्तु समीचीनमेव अस्ति हा अस्तु अग्रे कुर्मः
परन्तु उपसर्गः चेत् अवलोकते
तत्र उपसर्गः अस्ति चेत् किं करणीयं तत्र उपसर्गः त्यक्त्वा अकारः स्थापयित्वा तदनन्तरम् उपसर्गः पुनः स्थापनीयम् अस्ति एषः एव विषयः हा तत्र अहम् उपसर्गः इति तत्र अहं न चिन्तितवान् हा अस्तु अवलोकते इति उक्तवान् क्षम्यतां मम दोषः हा अस्तु इदानीं तत्र नवरूपाणि एकवारं कुर्मः तत्र किं हा शुभा भगिनी इदानीं तत्र क्रियापदं ददामि तत्र नवरूपाणि लङ्लकारे आत्मनिपदि धातु अस्तु मोदते इति
अमोदत अमोदेताम् अमोदन्त अमोदताः अमोदेताम् अमोदध्वम् अमोदे अमोदावहि अमोदामहि
हा समीचीनं भगिनि धन्यवादः हा इदानीं शोभा भगिनि तत्र भाषते भाषते एव दत्तमस्ति क्षम्यतां हा वर्धते
अवर्धत अवर्धेताम् अवर्धन्त अवर्धथाः अवर्धेताम् अवर्धध्वम् अवर्धे अवर्धावहि अवर्धामहि
हा समीचीनं हा अस्तु भानुचेतनी महोदय इदानीं भजते इति
महोदय अभजत अभजेताम् अभजन्त अभजथाः अभजेथाम् अभजध्वम् अभजे अभजावहि अभजामहि
हा समीचीनं हा अस्तु गीताञ्जलि भगिनी इदानीं क्षमते
अक्षमत अक्षमेताम् अक्षमन्त अक्षमथाः अक्षमेधाम् अक्षमध्वम् अक्षमे
अक्षमामहि समीचीनं भगिनि अस्तु नरेश महोदय इदानीं कामयते हा समीचीनम् अस्तु अग्रे श्रीप्रिया भगिनी तत्र हा मोदते इति
अमोदत अमोदेताम् अमोदन्त अमोदत्थाः अमोदेथाम् अमोदध्वम्
अमोदे अमोदावहि अमोदामहि.
हा समीचीनं. हा वंशीसुधा भगिनी तत्र विराजते क्षम्यतां क्षम्यतां न न न क्षम्यतां क्षम्यतां हा पुनः दोषः मास्तु. हा हा कामयते
कामयते अकामयत अकामयेताम् अकामयन्त अकामयताः अकामयेथाम् अकामयध्वम् अकामये अकामयावहि अकामयामहि.
हा समीचीनं भगिनि. अस्तु उषा भगिनि तत्र भजते
भजते अभजत अभजेताम् अभजन्त अभजताः अभजेता अभजेथाम् अभजध्वम् अभजे अभजावहि अभजामहि इति अस्ति.
हा इति समीचीनं भगिनि. अस्तु हा इदानीम् अन्तिम अभ्यासः तत्र कृत्वा अग्रे तत्र गृहपाठं कुर्मः. अस्तु तत्र अन्तिम अभ्यासः अस्मिन् विषये एतदस्ति. तत्र भाषते इति यद् दत्तमस्ति तदेव उपयुज्य वदन्तु. तत्र भानुचेतनी महोदय आरम्भं करोतु. तत्र सः इति सः अभाषत इति तदनन्तरं त्वम् अपि अहम् इति. भानुचेतनी महोदय
महोदय क्षम्यतां महोदय वदतु महोदय.
हा तत्र भाषते इति धातोः नवरूपाणि दत्तमस्ति खलु दत्तानि सन्ति खलु तदुपयुज्य पूर्वं तस्य पूर्वं सः अभाषत इति तादृश नवरूप नववाक्यानि वदतु महोदय.
त्वम् अभाषताः यूयम् अभाषेताम्
युवाम्
अभाषेताम् यूयम् अभाषत्वम् अहम् अभाषे आवाम् अभाषावहि वयम् अभाषामहि.
हा इति समीचीनम्. अस्तु अग्रे शोभा भगिनी तत्र इदानीं तत्र भजते इति हा सः भजते इति तत्र सः अभजत इति.
आम् महोदय सः अभजत तौ अभजेतां ते अभजन्त त्वम् अभजथाः युवाम् अभजेथां यूयम् अभजध्वम् अहम् अभजे आवाम् अभजावहि वयम् अभजामहि.
हा समीचीनं भगिनि. अस्तु इदानीं शुभा भगिनी तत्र सा इदानीं तत्र किं कुर्मः सा जायते इति
जायते
सा जायते
सा
अजायत
ते अजायेतां ताः अजायन्त त्वम् अजायथाः युवाम् अजायेथां यूयम् अजायध्वम् अहम् अजाये आवाम् अजायावहि वयम् अजाय
हा समीचीनं भगिनि. हा अस्तु समीचीनम्. अस्तु हा इदानीम् उषा भगिनि तत्र हा कल्पते इति हा सः सा कल्पते
सा अकल्पत ते अकल्पेताम् ताः अकल्पन्त त्वम् अकल्पताः युवाम् अकल्पेथाम् यूयम् अकल्पध्वम् अहम् अकल्पे आवाम् अकल्पावहि वयम् अकल्पामहि.
हा समीचीनं भगिनि, समीचीनं. हा अस्तु, इदानीं श्रीप्रिया भगिनि, तत्र सहते, एषः सहते,
एषः सहते, एतौ सारि
न इदानीं इदानीं लङ्लकाररूपं, हा हा,
एषः असहत, एतौ असहेताम्, एते असहन्त, त्वम् असहथाः, युवाम् असहेथाम्, यूयम् असहध्वम्, अहम् असहे, आवाम् असहावहि, वयम् असहामहि.
हा समीचीनं भगिनि, हा समीचीनम्. अस्तु नरेश महोदय, अग्रे तत्र वर्धते, ईशा वर्धते,
यूयम् अवर्धयन्, अहम् अवर्धे, आवाम् अवर्धावहि, वयम् अवर्धामहि.
हा समीचीनं महोदय. अस्तु, हा इदानीं गीताञ्जलि भगिनी, तत्र सेवते, भक्तः सेवते,
भक्तः असेवत, भक्तौ असेवेताम्, ताः असेवन्त, त्वम् असेवथाः, युवाम् असेवेथाम्, यूयम् असेवध्वम्, अहम् असेवे, आवाम् असेवावहि, वयम् असेवामहि.
हा समीचीनं भगिनि. अस्तु भानुचेतिनी महोदय उक्तवान् वा न खलु
महोदय? आम् सः अभाषत
इति उक्तवान्. अस्तु, अतः वंशीसुधा भगिनी अस्ति वा इदानीं
महोदय?
भगिनी न उक्तवती इति मन्ये. अस्तु, तत्र महिला क्षमते इति.
आं महोदय, महिला अक्षमयत्, क्षमते,
अक्षमत,
महिला अक्षमत, महिले अक्षमेतां, महिलाः अक्षमन्त, त्वम् अक्षमथाः, युवाम् अक्षमेथां, यूयम् अक्षमध्वम्, अहम् अक्षमे, आवाम् अक्षमावहि, वयम् अक्षमामहि.
हा समीचीनम्. अस्तु, सर्वे कृतवन्तः इति मन्ये अत्र. अस्तु, अत्र अन्यत् एकमेव अस्ति, तद् अभ्यासं कृत्वा तत्र अग्रे गच्छामः. तत्र हा तत्र अस्तु, इदानीं शुभा भगिनी तत्र भवती एतत् करोतु, तत्र भाषते इति तदेव क्रियापदं, किन्तु तत्र कविः भाषणम् अभाषत इति. कविः कवी कवयः, कविः कविः भाषणम्
अभाषत, कवि भाषणम् अभाषेताम्, कवयः भाषणम् अभाषन्त,
तावत् समीचीनं भगिनि. अस्तु, अन्यं पृच्छामि. अस्तु शोभा भगिनि, मध्यमपुरुषे भाषणम् इति मध्ये स्थापयित्वा त्वं
त्वं भाषणम् अभाषथाः,
युवां भाषणम् अभाषेथां यूयं भाषणम् अभाषध्वम्।
हा समीचीनं भगिनि, अस्तु। इदानीं भानुचित्री महोदय, उत्तमपुरुषे अहम्
अहम् अभाषे
न न न भाषणं भाषणं मध्ये स्थापनीयं।
अहं भाषणम् अभाषे, आवां भाषणम् अभाषावहि, वयं भाषणम् अभाषामहि।
हा समीचीनम्, अस्तु। हा गीतांजलि भगिनी, तदेव इदानीं प्रथमपुरुषे कविः।
कवि भाषणम् अभाषत, कवि भाषणम् अभाषेताम्, कवयः भाषणम् अभाषन्त।
हा समीचीनम्, अस्तु। नरेश महोदय, मध्यमपुरुषे
भाषणम् अभाषताः, युवां भाषणम् अभाषेताम्, यूयं भाषणम् अभाषध्वम्।
हा समीचीनम्। हा श्रीप्रिया भगिनी, उत्तमपुरुषे। हा क्षम्यतां क्षम्यतां, मम दोषः। हा हा इदानीं वदतु भगिनी।
हा अहं भाषणम् अभाषे, आवां भाषणम् अभाषावहि, वयं भाषणम् अभाषामहि।
हा समीचीनं भगिनि। हा अस्तु, इदानीं वंशीसुधा भगिनी, तत्र प्रथमपुरुषे गुरुः इति।
आं महोदय, गुरुः भाषणम् अभाषत, गुरौ अभाषत, क्षम्यतां, गुरुः भाषणम् अभाषत, गुरुः भाषणम् अभाषेतां, गुरवः भाषणम् अभाषन्त।
हा समीचीनं भगिनि। हा उषा भगिनी, मध्यमपुरुषे।
त्वं भाषणम् अभाषताः, युवां भाषणम् अभाषेथां, यूयं भाषणम् अभाषध्वम् इति।
हा समीचीनं। हा समीचीनं भगिनि। मधुसूदन महोदय, नमस्कारः, वक्तुम् इच्छति वा?
नमस्कारः महोदय, बहिः अस्मि।
अस्तु अस्तु अस्तु, शृणोति, अस्तु महोदय, अत्र अस्तु, अग्रे पृच्छामि। अस्तु अस्तु, हा इदानीम् अतः सर्वे कृतवन्तः इति मन्ये, तत्र किं क्रियापदस्य रूपाणि तस्य अभ्यासं जातं, तदनन्तरं कर्तृपदम् अस्ति चेत् अपि तस्य अभ्यासं जातं, कर्तृपदमपि कर्मपदम् अस्ति चेत् तस्य अभ्यासमपि जातम्। अस्तु समीचीनमस्ति, इदानीम् अग्रे गच्छामः। तत्र सप्तम अभ्यासः यद् अग्रिमपुटे अस्ति, गृहपाठरूपेण करणीयम् इति यदासीत् तत् एकवारं कुर्मः। अस्तु, तत्र हा श्रीप्रिया भगिनी आरम्भं करोति वा तत्र? श्रीप्रिया भगिनी, श्रीप्रिया भगिनी अस्ति वा? अस्तु अस्तु, तर्हि तत्र हा शोभा भगिनी, अतः तत्र सप्तम अभ्यासः आरम्भं करोति वा तत्र?
आम् महोदय, तत्र पठ् इत्यस्य अपठत्, अपठताम्, अपठन्, शुच् इति धातोः अशोचत्, अशोचताम्, अशोचन्, नम् इति धातुः अनमः, अनमतम्, अनमत।
हा मध्यमपुरुषे इति समीचीनं भगिनि, अस्तु समीचीनम्। अस्तु अग्रे गीतांजलि भगिनि, वद् इति धातोः। गीतांजलि भगिनि,
क्षम्यतां महोदय,
नम् इति कृतम्, इदानीं
नम् नम्
मध्यमपुरुषः, नम् इति कृतं, वद् इति,
वद् उत्तमपुरुषः। अब
नेपदि दातु न वा अथवा आत्मनेपदि दातु इति एकवारं उक्त्वा,
वद् वद् परस्मैपदी महोदय, वदति,
अतः
अतः
अवदम् अवदाव अवदाम
इति समीचीनम् तत् तावदेव अस्तु नरेश महोदय अग्रे चर् इति तत्र परस्मैपदि दातु न दातु अथवा आत्मनेपदि दातु इति एकवारं वदतु उक्त्वा अग्रे
परस्मैपदि धातु अस्ति मध्यमपुरुष अचरः अचरतम् अचरत
इति समीचीनं अस्तु श्रीप्रिया भगिनी अग्रे करोति वा तत्र न श्रूयते अस्तु
कुत्र महोदय
पेज् 84 मध्ये स्था इति तत्र अतिष्ठताम् इति दत्तमस्ति प्रथमपुरुष इति तत् परस्मै दत्तु धातु वा आत्मनेपदि धातु वा इति उक्त्वा रूपं वदतु
परस्मैपदि स्था धातु अतिष्ठत् अतिष्ठताम् अतिष्ठन्
इति समीचीनं भगिनि समीचीनं अग्रे वंशीसुत भगिनि अग्रे
महोदय हृ इति धातोः मध्यमपुरुषे अहरः इति अस्ति अहं न जानामि आ कथम् आगच्छति परन्तु आहारः इति रूपम् एकवचने अस्ति द्विवचने आहारतं प्रस्मैपदि धातु अस्ति आहारतं द्विवचने अस्ति बहुवचनम् आहारत
इति समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रे उषा भगिनि
परस्मैपदि धातु अस्ति महोदय उत्तमपुरुषे अजानाम्
समीचीनं भगिनि अस्तु
महोदय तत्र अजानीव इति आसीत् अजानीम इति अहं
कुत्र भगिनि
सम्यक् अस्ति वा अजानाम् उत्तमपुरुष अजानीव अजानीम
अजानी इति अस्ति वा तत्र
लट्लकाररूपं भवति वा लट्लकाररूपं भवति वा भगिनि यतोहि लङ् लकाररूपम् अस्ति
लङ् लकार एव भगिनि अत्र अहं दृष्टवती इति कृत्वा अजानीव अजानीम इति आसीत्
अस्तु 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 अस्तु
अष्टाध्यायी
लङ्लकारमपि तादृशम् अस्ति वा एकवारं द्रष्टव्यमस्ति
पूर्वं दृष्टवती महोदय
अभ्यासं कर्तुं समये
कर्तुं समये लङ्लकारे एव दृष्टवती तदर्थं
अस्तु एकवारं तत्र
पुनरेकवारं पश्यामि
पश्यामः तत्र किम् अस्ति इति अष्टाध्यायी मध्ये अस्तु तत्र कोऽपि पुनः दृष्ट्वा
चिन्तयामि अजानां सम्यक् नास्ति अजानम् अजानम्
अजानीव एव अस्ति महोदय अजानीव अजानीम
तदेव अस्ति तत्र एकवचने किम् अस्ति
अजानां महोदय अहं प्रेषयामि
दीर्घ अकारः एव अस्ति अजानम् इति न अजानाम् एव अस्ति वा
आम् महोदय
ओ अस्तु 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 धन्यवादः अस्तु धन्यवादः अस्तु भगिनी धन्यवादः अस्तु अतः तत्र अजानाम् अजानीव अजानीम इति अस्तु तत्र एतद् तत्र किं यदि तत्र अस्तु अतः अहं सामान्यरूपं तत् तस्य प्रयोगं प्रथमतया भवतु इति चिन्तयामि किन्तु यदि एतद् पुस्तके दत्तमस्ति चेत् अपि नियमः न दत्तः चेत् कथं वयं कर्तुं शक्नुमः खलु? यदि अष्टाध्यायी अथवा किमपि न पुस्तके यद् दत्तमस्ति तद् दृष्ट्वा एव अभ्यासं करणीयम् इति, तादृश अभ्यासमेव भवितव्यं खलु? अस्तु अस्तु हा अस्तु. अतः तत्र विशेषक्रियापदानां रूपम् अस्ति, एतत्तु सामान्यक्रियापदमेव अस्ति, जानम् इति अजानं, तत्तु ज्ञातव्यमेव. किन्तु अस्तु, समीचीनम् अस्तु. अजानम्
आत्मनेपदी
रूपमपि अस्ति महोदय, किन्तु अत्र परस्मैपदी रूपमेव दत्तमस्ति भगिनि. तदपि अस्ति, किन्तु यद् तत्र दत्तमस्ति तदेव करणीयम् अस्ति. अतः अजानाम् इति यदस्ति, अस्तु समीचीनं भगिनि, धन्यवादः. अस्तु हा धन्यवादः. कः कृतवती एतद्? उषा भगिनी, उषा भगिनी कृतवती खलु? अस्तु भगिनि, अतः भवती अग्रिममपि करोतु तत्र.
एकनिमिषं महोदय.
अजानीम इति
आयोगः गम् प्रथमपुरुषः गच्छति.
तत्र किं भवति, तत्र गच्छति इति किं भवति, तत्र अगच्छत् इति भवति, किन्तु तत्र पुनः अकारः योगः भवति, अतः
आगच्छन्
हा इति भवति. समीचीनं भगिनि, हा समीचीनम्.
उपसर्ग अस्ति वा महोदय?
हा गच्छति, अगच्छति, गच्छति, आगच्छति इति. तत्र गच्छति एकं क्रियापदमस्ति, किन्तु आगच्छति अन्यत् क्रियापदमस्ति खलु भगिनि?
उपसर्ग अस्ति वा महोदय अत्र?
अत्र अत्र किं प्रश्नः कः इत्युक्ते, गच्छति इति क्रियापदस्य लङ्लकारम् इति न, तद् सः प्रश्नः नास्ति. अत्र आगच्छति इति क्रियापदस्य लङ्लकाररूपं किम् इति, अतः आगच्छति अस्ति चेत् तत्र किम् अस्ति, उपसर्गः अस्ति इति कृत्वा एतत् वयं तत्र किञ्चित् पूर्वम् आसीत् तत्र उपसर्गः, क्रियापदे उपसर्गः अस्ति चेत् लङ्लकाररूपं कथं करणीयम् इति तत्र नियमः एषः अस्ति. क्रियापदे उपसर्गः अस्ति चेत् प्रथमतया उपसर्गं त्यजतु, तत्र लङ्लकाररूपं करोतु, तत्र अकारः यदागच्छति तत् स्थापयतु, तदनन्तरं पुनः उपसर्गः स्थापयतु इति.
अतः आ इति आगच्छति.
हा अतः आ प्लस् गच्छति, तत्र केवलं गच्छति इति स्वीकरोतु, तत्र तस्य लङ्लकाररूपम् अस्ति अगच्छत्. पुनः अ इति आ इति पूर्वं स्थापयतु, आ प्लस् अगच्छत् आगच्छत् इति भवति. तादृशकार्यः अस्ति तत्र. तत्र उपसर्गः अस्ति चेत् एतत् करणीयमस्ति. एतावत् वयं केवलं यस्मिन् क्रियापदे उपसर्गरहितक्रियापदानाम् अभ्यासं कृतवन्तः, एकमेव क्रियापदसहित उपसर्गसहितक्रियापदम् आसीत् पूर्वं. भगिनी वदतु.
भिन्नम् अस्ति न महोदय, एकपदम् एव उपसर्ग.
हा 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 सत्यं सत्यं, तत्र पूर्वमपि एतदासीत्. अहं तत्र किम् अवलोकते इति, हा 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 तादृशं, तत्र उपसर्गः अस्ति इति कृत्वा तत्र अतः इदानीं तत्र अग्रे उपसर्गस्य विषयः आगच्छति, तस्मिन् समये एतत् अपि पुनः एकवारं द्रष्टुं शक्नुमः. इदानीं मास्तु इति मन्ये, अतः केवलम् उपसर्गरहितक्रियापदानां रूपं तद् कुर्मः इति मम चिन्तनम् आसीत्। हा अस्तु, किन्तु एतत् हा एतत् तु अस्ति अत्र। अस्तु, अन्य कः? हा शुभा भगिनी अग्रे करोति वा?
परस्मैपदिधातुः पत् मध्यमपुरुषरूपाणि अपतः अपततम् अपतत।
हा समीचीनं भगिनि। हा अस्तु, शोभा भगिनी।
दृश् धातुः परस्मैपदी उत्तमपुरुषे अपश्यम् अपश्याव अपश्याम।
हा समीचीनं। हा बनचितनी महोदय भ्रम् इति अस्तु अस्तु महोदय। हा अस्तु, गीतांजलि भगिनि। अस्तु नरेश महोदय।
भ्रम् परस्मैपदे धातुः अस्ति, प्रथमपुरुषः अभ्रमत् अभ्रमन्
अभ्रमन्। अस्तु समीचीनं,
क्षम्यतां महोदय, अहं म्यूट् मध्ये।
अस्तु भगिनि, अस्तु भगिनि, इदानीम् अग्रिमं करोतु। स्मृ इति,
क्षम्यतां, स्मृ इति परस्मैपदी धातु मध्यमपुरुष अस्मरः अस्मरतम् अस्मरत।
हा समीचीनं भगिनि। हा अस्तु, इदानीं श्रीप्रिया भगिनि।
गै परस्मैपदी गै धातु अगायम् अगायावहि अगायामहि।
हा समीचीनं भगिनि। अस्तु, हा अस्तु, इदानीं भविष्यति भगिनि अग्रे।
उत्तमपुरुषः आसीत्
महोदय, अस्तु, हा परस्मैपदि धातु अस्ति, हा वहि इति
अगायम् अगायाव अगायाम।
हा हा परस्मैपदि धातु अस्ति। अस्तु समीचीनं, धन्यवादः सर्वेषां। हा अस्तु, वंशीसुर भगिनी अग्रे।
आं महोदय, पृच् पृच् इति धातु लट् प्रकारं रूपम् अस्ति, पृच्छति, प्रथमपुरुष रूपं लङ्गरकाररूप अपृच्छत् अपृच्छतम् अपृच्छताम् अपृच्छन्। अत्र
समीचीनम् अस्तु। अस्तु, तत्र वंशीसुर भगिनी पुनः एकवारं वदतु भगिनि।
आं महोदय, पृच्छ् इति धातुः अस्ति, लट् लकाररूपमस्ति, पृच्छति, लङ् लकाररूपमस्ति, प्रथमपुरुषे अपृच्छत् अपृच्छताम् अपृच्छन्।
समीचीनं भगिनि। अस्तु, अग्रे उषा भगिनी।
आं महोदय, खत्
अनन श्रु इति श्रु इति
श्रु श्रु धातु अस्ति परस्मैपदी मध्यमपुरुष श्रु शृणोति शृणोति इति।
हा तत्र वंशीसुर भगिनि भवती कृतवती खलु, भवती वदतु एतद्।
अशृणुतः
अत्र महोदय अशृणोः
विशेषरूपम् अस्ति। हा एकवारं वदतु, यद् यः जानाति अथवा या जानाति वदतु एकवारम्।
अशृणोः अशृणुतम् अशृणुत
इति अस्ति। अस्तु समीचीनम्। अस्तु, अतः तत्र यद् वयं कर्तुं शक्नुमः तद् कुर्मः, यद् न कर्तुं शक्नुमः तद् त्यजामः इदानीं। हा अस्तु, तत्र उषा भगिनी अतः भवती कत् इति तदेव करोतु भगिनी।
कत् खत् धातु अस्ति, कथयति, प्रथमपुरुषे लङ्लकारे अकथयत् अकथयताम् अकथयन्
इति। समीचीनम्। अस्तु, हा रमेतं रमु अस्तु ईक्षिति तदपि अस्तु केवलम् अन्यत् सेविति अस्तु अस्तु इदानीं तत् तद् पर्याप्तम् इति मन्ये हा इदानीम् एकः कार्यः अस्ति न कार्यद्वयमस्ति तत्र
महोदय प्रश्नः महोदय
भगिनी वदतु भगिनी
महोदय रमु इति धातु अस्ति
इति दत्तम् अस्ति भगिनि
रमते रमते इति रमते अहं मन्ये रम् धातु
द्रष्टव्यमस्ति भगिनि
अपगच्छति भगिनि उकारः अनुनासिकवर्णः अस्ति अतः रम् इति अवशिष्यते धन्यवादः
अस्तु कार्यद्वयम् अस्ति एकमस्ति अनेकाः जनाः विलम्बेन आगतवन्तः इति कृत्वा पुनः एकवारम् अहं प्रश्नं प्रष्टुम् इच्छामि एषः समयः यदस्ति वर्गस्य यः अस्ति सः सम्यक् वा सार्धसप्तवादनतः नववादनपर्यन्तम् इति अस्तु सर्वे अङ्गीकुर्वन्ति इति मन्ये अस्तु अन्यः कार्यः एषः अस्ति तत्र वारं वारम् अहं गृहपाठस्य अथवा स्मारणपत्रे अहं प्रेषयामि एतत् स्वरूपमहोदयस्य करपत्रं तस्य मुद्रणं करोतु अपि तत्र विभक्तेः कण्ठस्थीकरणं करोतु इति किन्तु न पृष्टवान् अद्य किञ्चित् कुर्मः तत्र देवशब्दस्य विभक्तेः एकवारं कुर्मः तत्र यदि स्वरूपमहोदयस्य करपत्रं नास्ति चेत् तत्र गीतासोपाने एव पेज् 197 मध्ये अस्ति तत्र रामशब्दस्य दत्तमस्ति किन्तु देवशब्दस्य कुर्मः तत्र शुभा भगिनी वदति वा देवशब्दस्य केवलं विभक्ति इति न वदतु केवलं रूपं सर्वं वदतु भगिनि देवः देवो देवाः इति
देवः देवौ देवाः देवं देवौ देवान् देवेन देवाभ्यां देवैः देवाय देवाभ्यां देवेभ्यः देवात् देवाभ्यां देवेभ्यः देवस्य देवयोः देवानां देवे देवयोः देवेषु देव देवौ देवा
हा समीचीनं भगिनि अस्तु शोभा भगिनी इदानीं गजः इति
आं महोदय गजः गजौ गजाः हे गज हे गजौ हे गजाः गजं गजौ गजान् गजेन गजाभ्यां गजैः गजाभ्यां गजैः गजाय गजाभ्यां गजेभ्यः गजात् गजाभ्यां गजेभ्यः गजस्य गजयोः गजानां गजे गजयोः गजेषु
हा समीचीनं भगिनि अस्तु भानुचतुरी महोदय बालकः
बालकः बालकौ बालकाः बालकं बालकौ बालकान् बालकेन बालकाभ्यां बालकेभ्यः
बालकेन
बालकेन बालकाभ्यां बालकेभ्यः
बालकैः बालकैः
बालकैः बालकाय बालकाभ्यां बालकेभ्यः बालकात् बालकाभ्यां बालकेभ्यः बालकस्य बालकयोः बालकानां
हा समीचीनं बाले बाले बालक बालकः बालक इति बालः न बालके अस्तु समीचीनं महोदय अस्तु हा इदानीं गीताञ्जलि भगिनी तत्र घटः
गतः
घटः घटः
ओ घटः घटः घटौ घटाः हे घट हे घटौ हे घटाः घटं घटौ घटान् घटेन घटाभ्यां घटैः घटाय घटाभ्यां घटेभ्यः घटात् घटाभ्यां घटेभ्यः घटस्य घटयोः घटानां घटे घटयोः घटेषु.
हा समीचीनं भगिनि. अस्तु नरेश महोदय, तत्र मीनः न शुकः इति शुकः
शुकः शुकौ शुकाः ये शुक ये शुकौ ये शुकाः शुकं शुकौ शुकान् शुकेन शुकाभ्यां शुकैः शुकाय शुकाभ्यां शुकेभ्यः शुकात् शुकाभ्यां शुकेभ्यः शुकस्य शुकयोः शुकानां शुके शुकयोः शुकेषु.
हा समीचीनं महोदय. अस्तु श्रीप्रिया भगिनी, तत्र चषकः
शशकौ शशकाः हे शशक हे शशकौ हे शशकाः शशकौ शशकान् शशकेन शशकाभ्यां शशके नत्वम् अस्ति अथवा
भगिनि अहं चषकः इति उक्तवान् किन्तु चषकः शशकः न चषकः
चषकः चषकः अस्तु क्षम्यतां महोदय चषकेन चषकाभ्यां चषकैः चषकाय चषकाभ्यां चषकेभ्यः चषकात् चषकाभ्यां चषकेभ्यः चषकस्य चषकयोः चषकानां चषके चषकयोः चषकेषु.
हा समीचीनं भगिनि. अस्तु हा अस्तु अग्रे वंशीसुत भगिनि, तत्र बिडालः.
आं महोदय, बिडालः बिडालौ बिडालाः बिडालं बिडालौ बिडालान् बिडालेन बिडालाभ्यां बिडालैः बिडालाय बिडालाभ्यां बिडालेभ्यः बिडालात् बिडालाभ्यां बिडालेभ्यः बिडालस्य बिडालयोः बिडालानां बिडाले बिडालयोः बिडालेषु हे बिडाल हे बिडालौ हे बिडालाः.
हा समीचीनं भगिनि. अस्तु हा उषा भगिनि.
महोदय अहं क्षम्यतां महोदय, अहं वक्तुं शक्नोमि.
अस्तु अस्तु महोदय, अग्रे अग्रे उषा भगिनी वदति, तदनन्तरं भवान् वदतु महोदय. अस्तु उषा भगिनी, इदानीं तत्र बालः इति
बालः बालः बालौ बालाः हे बाल हे बालौ हे बालाः बालं बालौ बाला बालान् बालेन बालाभ्यां बालैः बालाय बालाभ्यां बालेभ्यः बालात् बालाभ्यां बालेभ्यः बालस्य बालयोः बालानां बाले बालयोः बालेषु.
हा समीचीनं भगिनि. अस्तु अग्रे हा इदानीं मधुसूदन महोदय, तत्र हा किं भवान् एतत् वदतु अत्र हा तत्र शुकः इति. हा
महोदय, शुकः शुकौ शुकाः हे शुक हे शुकौ हे शुकाः शुकं शुकं शुकौ शुकान् शुकेन शुकाभ्यां शुकैः शुकाय शुकाभ्यां शुकेभ्यः शुकात् शुकाभ्यां शुकेभ्यः शुकस्य शुकयोः शुकानां शुके शुकयोः शुकेषु.
हा समीचीनं महोदय. अस्तु धन्यवादः. अस्तु हा इदानीं तत्र एतत् कर्तुं शक्नुमः, प्रतिवर्गम् एकमेकं कण्ठस्थीकरणं करोतु. अद्य अकारान्त पुल्लिङ्ग देवशब्दस्य अभवत्, अग्रिमवर्गे तत्र आकारान्त स्त्रीलिङ्गपदस्य भवतु कण्ठस्थीकरणम् इति तादृशं. किञ्चित् कण्ठस्थीकरणं कृत्वा गच्छामश्चेत् सर्वं मनसि स्थापितं भवति. अस्तु, अतः बहु समीचीनमस्ति अद्य तत्र आत्मनेपदीधातूनाम् अपि परस्मैपदीधातूनां लङ्लकारसामान्यरूपस्य अभ्यासं जातम्. अपि एकमपि एकम् अभ्यासमपि कृतवन्तः. अग्रिमवर्गे तत्र स्म इति रूपस्य प्रयोगः कीदृशः इति दृष्ट्वा, तत्र कथा अपि अस्ति क्रोधपिशाचः इति, तद् अपि अग्रिमवर्गे पठितुं शक्नुमः इति मन्ये. अस्तु, समयः जातः. प्रश्नः अस्ति वा? नो चेत् विरमामः. अस्तु,
धन्यवादः.
सर्वेषां नमस्कारः.
चषकेण नत्वम् अस्ति किल? नत्वं मूर्धन्य
तत्र शकारः अस्ति. शकारः अस्ति इति कृत्वा अस्ति भगिनि. अहम् इदानीं केवलं तत्र सामान्यरूपम् एकवारं मनसि स्थापयतु इति कृत्वा तत्र किमपि न उक्तवान्, किन्तु अन्यत् पदं मम समीपे नासीत् इति तद् दत्तवान्. किन्तु तस्य कार्यः कुत्र इति नियमः अस्ति, तद् पश्यामः. किन्तु सत्यं नत्वं भवति तत्र. सत्यं. अत्र कवर्गः पवर्गः अस्ति चेत् तत्र शकारः ऋकारः रेपः तदनन्तरं पकारः वा कवर्गः अथवा पवर्गः अस्ति चेत् तत्र णत्वं भवति, नो चेत् बाधा अस्ति इति नियमः अस्ति.
धन्यवादः महोदय.
नमस्कारः, धन्यवादः. अग्रिमवर्गे
धन्यवादः महोदय.
नमस्कारः.